राहुस्तोत्रम् राहुर्दानवमन्त्री च सिंहिकाचित्तनन्दनः अर्धकायः सदा क्रोधी चन्द्रादित्यविमर्दनः रौद्रो रुद्रप्रियो दैत्यः स्वरभानुर्भानुभीषितः ग्रहराजसुधापायी राकातिथ्यभिलाषुकः कालदृष्टिः कालरूपः श्रीकण्ठहृदयाश्रयः विधुम्पुनः सहिङ्केयो घोररूपो महाबलः ग्रहपीडाकरो दंष्टो रक्तनेत्रो महोदरः पञ्चविंशति नामानि कृत्वा राहुं सदा नरः यः कठिन्महति पीडा तस्य नश्यति केवलम् आरोग्यम् पुत्रमधुनाम् श्रियम् धान्यम् पशुम् सदा ददाति राहुस्तस्मै यः पठेत् स्तोत्रमुक्तमम् सततम् पठेत् यस्तु जीवेद्वर्षतम् नरः।